इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। अथ वार्ताः। जम्मूतवी रेलस्थानकात् ह्यः विस्तृतायाः श्रीनगर जम्मू वन्दे भारत एक्सप्रेस सेवायाः हरितध्वजप्रदर्शनपूर्वकम् उद्घाटनावसरे जनसमूहं सम्बोधयन् श्रीवैष्णवः अवदत् यत् जम्मूकश्मीरस्य पर्वतीयप्रदेशे रेलमार्गेण प्रवेशप्रदानेन सम्पूर्णस्य देशस्य यात्रिकाः उपकृताः भविष्यन्तीति। रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् जम्मू श्रीनगरयोः मध्ये रेलमार्गस्य सञ्चालनेन रेलमार्गसम्बन्धे महत् परिवर्तनम् अभवत् चेति।
आज जम्मू और श्रीनगर के बीच में जो माननीय प्रधानमंत्री जी ने रेलवे लाइन का इनॉग्रेशन लास्ट ईयर किया था और वंदे भारत सर्विस चालू की थी, 8 कोच की ट्रेन को 20 कोच की ट्रेन में अपग्रेड किया गया है आज, और जो कटरा से श्रीनगर चलती थी उसको एक्सटेंशन करके जम्मू से स्टार्ट किया गया है। ये जम्मू कश्मीर की सभी जनता के लिए, सभी आवाम के लिए, सभी नागरिकों के लिए बहुत बड़ा एक बेनिफिट रहेगा। रेलवे लाइन के इनॉग्रेशन के बाद बहुत बेनिफिट मिला है लोगों को।
अवसरेस्मिन् प्रधानमन्त्री कार्यालये केन्द्रीय राज्यमन्त्रीभूतः डॉ जितेन्द्र सिंहः अवदत् यत् जम्मू कश्मीर प्रदेशे अस्याः रेलसेवायाः प्रवर्तनेन यात्रायाः सुगमता महत्वरूपेण वर्धिष्यते, सम्पूर्णक्षेत्रे व्यापारस्य सुगमता भविष्यतीति निश्चितमस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदेहल्याम् ऐकादशिकं योजनाप्रमुखाणां सम्मेलनम् अभिसम्बोधितम्। विदेशमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् विदेशेषु भारतस्य राष्ट्रियहितस्य प्रचारार्थं श्रीमोदी बहुमूल्यं मार्गदर्शनं दत्तवान् इति। विदेशमन्त्रालयेन एप्रिलमासस्य 28 30 दिनांकपर्यन्तं सम्मेलनस्यास्य आयोजनं कृतमासीत्। विदेशमन्त्री डॉ एस जयशंकरश्च ह्यः उद्घाटनभाषणम् अकरोत्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य लेह, चोगलामसर, फोटोंग, जीवत्सालच क्षेत्रेषु तथागत बुद्ध भगवतः पवित्रावशेष प्रदर्शनस्य उद्घाटनं बुद्ध पूर्णिमोत्सवस्य च शुभारम्भं करिष्यति। श्रीशाहः लेहस्थे कारगिल क्षेत्रे केन्द्रीय बौद्ध अध्ययन संस्थायाः प्रतिदिनं 10,000 लीटर क्षमतायुक्तस्य दुग्ध उद्योगस्य शिलान्यासमपि करिष्यति। गृहमन्त्री लद्दाखस्य 2-दिवसीय यात्रायां ह्यः लेहनगरं सम्प्राप्तवान्। उत्तराखण्डराज्ये आदिकैलाशयात्रा आरभ्यते। पिथौरागढ़ जनपद प्रशासनं तीर्थयात्रायाः सुकर निर्वहणार्थं सर्वाः सज्जताः सम्पन्नाः सन्तीति अवोचत्। अन्तःमार्गीय अनुमतिपत्राणि पूर्वमेव प्रदत्तानि सन्ति। पञ्जीकृताः भक्ताः पूर्वनिर्धारित कार्यक्रमानुसारं यात्रां करिष्यन्ति। कोलकातानगरे ह्यः खुदिराम अनुशीलन केन्द्रस्य गणना केन्द्रे पत्राचार मतपत्राणां पृथक्करण समये नाटकीय दृश्याणि प्रकटितानि। स्ट्रांग रूमाख्ये ससुरक्षित प्रकोष्ठे दृश्यमाने दृश्यचित्रे कर्मचारिणः अराजकत्वं जनयन्तः अदृश्यन्, यत्र तृणमूल कांग्रेस समर्थकाः ईबीएम इति मध्ये संभाव्य विरूपणम् आरोपयन् तत्स्थानं प्रति धावन्तः आगच्छन्। वरिष्ठ तृणमूल नेता शशि पंज कुनाल घोषौ तैस्सह सम्मिलितौ आस्ताम्। स्वकीये वक्तव्ये आयोगः अवधानं दत्तवान्। केरल तमिलनाडु सीमायां स्थितस्य मंगलादेवी कन्नगी देवालयस्य चित्रापूर्णिमा उत्सवः अद्य भविष्यति। पेरियार व्याघ्र संरक्षण वनान्तस्थः देवालयः प्रातः 6 भक्तेभ्यः उद्घाटयिष्यति। मन्दिरस्य अन्तः एतत् मन्दिरं केवलं चैत्रपूर्णिमायाः दिने एव उद्घाट्यते। वनप्रवेशः मध्याह्ने 2:30 स्थगितः भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः बुद्धपूर्णिमायाः अवसरे नागरिकेभ्यः वर्धापनानि यच्छन्ति। स्वकीये सन्देशे उक्तवती यत् अयं पवित्रः दिवसः भगवतः बुद्धस्य पृथिव्याम् आगमनस्य, ज्ञानोदयस्य, महापरिनिर्वाणस्य च युगान्तकारिणां घटनानां प्रतीकभूतोऽस्ति। तस्याः अनुकम्पया अहिंसायाः, शान्तेः, ज्ञानस्य च अनन्तसन्देशाः सम्पूर्णां मानवजातिं निरन्तरं मार्गदर्शयन्ति च सा अवोचत्। आईपीएल क्रिकेट क्रीडायां गुजरात टाइटन्स दलं गतरात्रौ अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे रॉयल चैलेंजर्स बेंगलोर दलं 4 पराजयत् इति वार्ताः।